अथ सप्तदशोऽध्यायः। अर्जुन उवाच, ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विता, तेषां निष्ठा तु का कृष्ण सत्त्वमाहोरजस्तमः। श्रीभगवान् उवाच, त्रिविधा भवति श्रद्धा, देहिनां सा स्वभावजा, सात्विकी राजसी चेव तामसी चेति तां शृणु। सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत, श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्ध स एव स। यजन्ते सात्विका देवान् यक्षरक्षांसि राजसा, प्रेतान् भूतगणाश्चान्ये यजन्ते तामसा जना। अशास्त्रविहितं घोरं तप्यन्ते ये तपो जना, दम्भाहंकार संयुक्ता कामरागबलान्विता। कर्षयन्त शरीरस्थं भूतग्राममचेतस, मां सेवान्त शरीरस्थं तान् विद्यासुरनिश्चयान्। आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रिय, यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु। आयुसत्त्वबलारोग्य सुखप्रीति विवर्धना, रस्या स्निग्धा स्थिरा हृद्या, आहारा सात्विक प्रिया। कट्वं ललवणात्युष्ण तीक्ष्णरूक्षविदाहिनः, आहारा राजसस्येष्टा दुःखशोकामयप्रदा। यातयामं गतरसं ऊतिपर्युषितं च यत्, उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम्। अफलाकाङ्क्षिभिर्यज्ञो विधिद्रष्टो ययुज्यते, यष्टव्यमे वेति मनः समाधाय स सात्विकः। अभिसन्धाय तु फलं दम्भार्थमपि चेव यत्, इज्यते भरतश्रेष्ठ तं यज्ञं विद्धिराजसम्। विधिहीनं स्रष्टानं मन्त्रहीनं दक्षिणम्, श्रद्धाविरहितं यज्ञं तामसं परिचक्षते। देवद्विजगुरुप्राज्ञ पूजनं शोचमार्जवं, ब्रह्मचर्यम् अहिंसा च शारीरं तप उच्यते। अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत्, स्वाध्यायाभ्यसनं चेव वाङ्मयं तप उच्यते। मन्प्रसादः सोमयत्वं मौनमात्मविनिग्रह, भावसंशुद्धिरित्येत तपोमानसमुच्यते। श्रद्धया पर्यातप्तं तपस्तत्त्रिविधं नरे, अफलाकाङ्क्षिभिर्युक्ते सात्विकं परिचक्षते। सत्कारमान पूजार्थं तपोदम्भेन चेव यत्, क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम्। मूढग्राहेण आत्मनो यत्पीड्या क्रियते तपः, परस्योत्सादनार्थं वा तत्तामसमुदारतम्। दातव्यमिति यद्दानं दीयते अनुपकारिणे, देशे काले च पात्रे च तद्दानं सात्विकं स्मृतम्। यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः, दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम्। अदेशकाले यद्दानं अपात्रेभ्यश्च दीयते, असत्कृतं वज्ञातं तत्तामसमुदारितम्। ओम तत्सत इति निर्देशो ब्रह्मणस्त्रिविध स्मृत ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिता पुरा। तस्मात् ओमित्युदारत्य यज्ञदानतपः क्रिया प्रवर्तन्ते विधानोक्ता सततं ब्रह्मवादिनां। तदित्यनभिसन्धाय फलं यज्ञतपः क्रिया दानक्रियाश्च विविधा क्रियन्ते मोक्षकांक्षिभिः। सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते प्रशस्ते कर्मणि तथा सच्छब्दपार्थयुज्यते। यज्ञे तपसि दाने च स्थिति सदिति चोच्यते कर्म चैव तदर्थीयं सदित्येवाभिधीयते। अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह। ओम तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः।